राम गीता जी का पाठ आठवां अध्याय श्लोक 21 से अध्याय समाप्ति तक। राम
वसुदेव सुतं पंचजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् अव्यक्तोऽक्षरयेत्युत समाहो परमां गतिम् यं प्राप्य न निवर्तन्ते तद्धाम परमा मम पुरुषः स परः पार्थ भक्त्या लभ्यस्तनन्यः यस्यन्तस्थानि भूतानि येन सर्वमिदं तथम् यत्र काले त्वनावृत्ति मा वृत्तिं चैव योगिना प्रयासायान्ति तं कालं वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल षण्मास उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः भूमो राते तथा कृष्ण षण्मास दक्षिणायनम् तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते शुक्ल कृष्णे गतिहेते जगत शाश्वते मते एकयायात्यनावृत्ति मन्यया वर्तते पुनः नैते सिद्धि पार्थ जानां योगी मोह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपसु चैव दानेषु यत्पौण्यभरं प्रदिष्टम् आप्तीति तत्सर्वमिदं विदित्वा योगीश्वरं स्थानमुपैति साध्यम् योगीश्वरं स्थानमुपैति साध्यम् ॐ तत्सत् शिवभगवद्गीतासुपनिषत्सूरविद्यायां योगशास्त्रे श्रीकृष्णादिसंवादे अक्षरब्रह्मयोगो नाम अष्टमः वसुदेवसुतं देवम् पंचजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरिशरणम् 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 हरि शरणम् 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 हरि शरणम्।